धर्मक्षेत्रे कुरुक्षेत्रे समवेदायुत्सवः मामकः पाण्डवाश्चैव किम कुर्वत सञ्जय पाञ्चजन्यम् हृषीकेशो देवदत्तम् धनञ्जयः पौण्ड्रम् दद्भौ महाशङ्खम् भीमकर्मानुकोदरः अनन्तविजयम् राजा कुन्तीपुत्रो युधिष्ठिरः नकुलः सह देवश्च सुघोषमणिपुष्पकौ न च श्रेयो न पश्यामि हत्वा सजनमाहहे न काङ्क्षे विजयम् कृष्ण न च राज्यम् सुखानि च कार्पण्यदोषोपहतः स्वभावः पृच्छामि त्वाम् धर्मसम्मूढचेताः यच्छ्रेयस्यान्निश्चितम् ब्रूहि तन्मे शिष्यस्तेऽहम् शाति माम् त्वाम् प्रपन्नम् अशोच्यानन्दशोचस्त्वम् प्रज्ञाबालांश्च भाषसे गतासो न गतासोंश्च नानुशोचन्ति पण्डिताः न त्वेवाहम् जातदासम् न त्वम् एवे जनाधिपाः न चैव न भविष्यामः सर्वे वयमतः परम् देहिनोऽस्मिन् यथा देहे कोमलर्यौवनम् जरा तथा देहान्तरम् प्राप्य धीरस्तत्र न मुह्यति मात्रा स्पर्शास्तु कौन्तेया शीतोष्णसुखदुःखदाः आगमापायिनो नित्याः तां स्वितिक्षस्व भारत इयम् हि नव्यतयज्ञेते पुरुषम् पुरुषर्षभा सादुःखसुखम् धीरम् सौकृतत्वाय कल्पते न जायते व्ययते वा कदाचिन् नायम् भूत्वा भविता वा न भूयः अजो नित्यः शाश्वतोऽयम् पुराणो न हन्यते हन्यमाने शरीरे वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि तथा शरीराणि विहाय जीर्णान्यन्यानि सन्ध्याति नवानि देहि नैनम् छिन्दन्ति शस्त्राणि नैनम् दहति पावकः न चैनम् वेदयज्ञापो न शोषयति मार्गः जातस्य हि ध्रुवो मृत्या ध्रुवम् जन्मपतस्य च तस्मादपरिहार्यर्थे न त्वम् शोचितुमर्हसि आश्चर्यवत् पश्यति कश्चिदेनम् आश्चर्यवद्वदति तथैव चान्यः आश्चर्यवच्चैनमन्यशृणोति श्रुत्वाप्येनम् वेद न चैव कश्चित् सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ततो युद्धाय युज्यस्व नैवम् पापमवाप्स्यसि नेहाभिक्रमणाशोऽस्ति प्रत्यवायो न विद्यते स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयम् वशिष्ठाया सम्भवाम्यात्ममायया यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानं धर्मस्य तदात्मानं च जाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृताम् धर्मसंस्थापनार्थाय सम्भवामि युगे युगे जन्म कर्म च मे दिव्यम् एवं योगेत्युक्तत्वतः योगमाया समावृतः मूढ़ो यम् न जानाति लोको वा सर्वाणि कर्माणि मयि सद्यस्य मत्तराः अनन्येनैव योगेन मां ध्यायन्त उपासते तेषामहं च बुद्धर्ता बुद्धिसंसारसागरात् भवामिरचिरात्तार्था मय्यावेशितचेतसा अद्वेष्टा सर्वभूतानां मैत्रः करुणमेव च निर्ममो निरहङ्कारः समदुःखसुखक्षमी सन्तुष्टः सततं योगी यदात्मा दृढनिश्चयः मय्यर्पितमतो बुद्धेर्यो मद्भक्तः समेत्रियः अमानित्वं पदं भित्वम् अहिंसा क्षान्तिराज्यमम् आचार्योपासनं शौचम् स्थैर्यम् आत्मविनिग्रहः इन्द्रियार्थेषु वैराग्यम् अनहङ्कारमेव च जन्ममृत्युजराव्याधे दुःखदोषानुदर्शनम् कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते पुरुषसुखदुःखानां भोक्तृत्वे हेतुरुच्यते पुरुषः प्रकृतिस्थो हि भुक्ते प्रकृतिजान्गुणा कारणं गुणसन्तोस्य सतसद्यो विजन्मसु उपदृष्टानुमन्ता च भक्ता भोक्ता महेश्वरः परमात्मेति चाद्युक्तो देहेऽस्मिन् पुरुषः परः समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् विनश्यस्त विनश्यन्तम् यः पश्यति स पश्यति सर्वयोनिषु कौन्तेया मूर्तयः सम्भवन्ति याः तासां ब्रह्ममहज्ञोतेरहं बीजव्रतः पिता सत्त्वं रजस्तमिति गुणाः प्रकृतिसम्भवाः निबध्नन्ति महाबाहो देहे देहिनमव्ययम् तत्र सत्त्वं निर्मलत्वात् प्रकाशकपनायम् सुखसङ्गेन बध्नाति ज्ञानसङ्गेन जानथ रजो रागात्मकं विद्धि कृष्णासङ्गसमुद्भवम् तन्निबध्नाति कौन्तेया कर्मसङ्गेन देहिनम् तमस्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् प्रमादालस्य निद्राभिस्तन्निबध्नाति भारत ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः नान्यं गुणेभ्यः कर्तारं यदा दृष्टानुपश्यति गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति मां च योग्यविचारेण भक्तियोगेन सेवते सगुणान्तमतीत्यैकान् ब्रह्मभूयाय कल्पते ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्यामेयस्य च शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ऊर्ध्वमूलम् अधशाखम् अश्वत्थम् प्राहुरव्ययम् छन्दांसि यस्य पर्णानि यस्तम् वेदसवेदवित् निर्माणमोहाचितसङ्गदोषा अध्यात्मविद्यानिवृत्तकामाः द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्गच्छन्त्य मूढाः मदमव्ययम् तत् न तद्भाषयति सूर्यो न शशाङ्को न पामकः यद्गत्वा न निवर्तन्ते तद्धाम परमम् मम ममैवांशो जीवलोके जीवभूतः सनातनः मनश्चष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति शरीरं यदवाप्नोति यच्चाक्रामतीश्वरः गृहीत्वैकानि संयाति वायुगन्धान्निवाशयात् अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः प्राणापानसमायुक्तः पचाम्यन्नं च दुर्विधम् सर्वस्य चाहम् हृदि सन्निविष्टो मत्तस्मृतिर्गानमपोहनम् च वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृत्वेन विदेव चाहम् द्वावयो पुरुषो लोके क्षरश्चाक्षरमेव च क्षरः सर्वाणि भूतानि कूटस्थोऽक्षरमुच्यते उत्तमः पुरुषस्तन्यः परमात्मेत्युदाहृतः यो लोकत्रयमाविश्य विभक्त्यं विलमीश्वरः यस्माक्षरमतीन्द्रोऽहम् अक्षरादिचोत्तमः अतोऽस्मि लोके वेदे च कथितः पुरुषोत्तमः यो मामेवम् सम्मूढो जानाति पुरुषोत्तमम् स सर्वविद् भजति माम् सर्वभावेन भारत अभयम् सत्त्वसंशुद्धेर्ज्ञानयोगव्यवस्थितिः दानम् तपश्च यज्ञश्च स्वाध्यायास्तपमार्जवम् अहिंसा सत्यमक्रोधस्यागाः शान्तिरपैशिनम् दया भूतेश्वरोरुत्वम् मार्गवम्भैरचापलम् तेजः क्षमाधिशोचम् अद्रोहो नाभिमानित भवन्ति सम्पदम् दैवीम् अभिजातस्य भारत दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च अज्ञानम् चाभिजातस्य पार्थसम्पदमासुरी तानहम् विशतः क्रूरान् संसारेषु नराधम क्षिपाम्यजस्रम् अशुभान् आसुरेष्येव योनिषु आसुरीम् योनिमापन्ना मूढा जन्मनि जन्मनि मामप्राप्यैव कौन्तेया ततो यान्यधमाम् गतिम् त्रिविधम् नरकस्येदम् द्वारनाशनमात्मनः कामः क्रोधस्तथा लोभा तस्मादेतत्रयम् त्यजेत् यः शास्त्रविधिम् सृज्य वर्तते कामकारकः न स सिद्धिमवाप्नोति न सुखम् न परां गतिम् यजन्ते सात्विका देवान् यक्षरक्षां चिराजसाः प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः आयुसत्त्वबलारोग्य सुखप्रीतिविवर्धनाः रस्याः स्निग्धाः स्थिराहृत्या आहारः सात्विकप्रियाः अनुद्वेगकरम् वाक्यम् सत्यम् प्रियहितम् च यत् स्वाध्यायाभ्यसतम् जीव वाङ्मयम् तपगुच्यते मनः प्रसादः सौम्यत्वम् मौनम् आत्मविनिग्रहः भावसंशुद्धिरित्येतत् तपोपानसमुच्यते काम्यानाम् कर्मणाम् न्यासम् सन्न्यासम् कवयो विदुः सर्वकर्मफलत्यागम् प्राहुस्त्यागम् विचक्षणाः यज्ञदानतपः कर्मानत्याज्यम् कार्यमेव तत् यज्ञोदानन्तपश्चैव पावनानि मनीषिणा अधिष्ठानम् तथा कर्ता करणम् च पृथग्विधम् विविधाश्च पृथक् चेष्टा देवम् जीवात्र पञ्चमम् प्रवृत्तिम् च निवृत्तिम् च कार्याकार्ये भयाभये बन्धम् मोक्षम् च या वेत्ति बुद्धिः सा पार्थसात्विकी शमोदमस्तपश्चौचम् शान्तिर्भार्जवमेव च ज्ञानम् विज्ञानमास्तिक्यम् ब्रह्मकर्मस्वभावजम् ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति समः सर्वेषु भूतेषु मद्भक्तिम् लभते परा भक्त्या मामभिजानाति यावान्यस्यास्मि तत्त्वतः ततो माम् तत्त्वतो ज्ञात्वा विशति तदनन्तरम् चेतसा सर्वकर्माणि मयि सन्ध्यस्य मत्परः बुद्धियोगमुपाश्रित्य मच्चित्तः सततम् भवान् ईश्वरः सर्वभूतानाम् हृदयशिरन तिष्ठति भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया मन्मना भगवद्भक्तो मद्यादीमाम् नमस्कुरु मामेवैष्यसि सत्यम् ते प्रतिज्ञाने प्रियोऽसि मे सर्वधर्मान् परित्यज्य मामेकम् शरणम् व्रज अहम् त्वाम् सर्वपापेभ्यो मोक्षयिष्यामि मासितः एवम् परमम् गुह्यम् मद्भक्तेषु भिदास्यत्।